ओम नमो भगवते वासुदेवाय। अथैकोनविंशोऽध्यायः। सूत उवाच, महीपतिस्त्वथ तत्कर्मगर्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः। अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि। ध्रुवं ततो मे कृतदेवहेलना, दुरत्ययं व्यसनं नातिदीर्घात्। तदस्तु कामं त्वघनिष्कृताय मे, यथा न कुर्यां पुनरेव मद्धा। अद्यैव राज्यं बलमृद्धकोशं प्रकोपित ब्रह्मकुलानलो मे। दहत्वभद्रस्य पुनर्न मे भूत् पापीयसि धीर्द्विजदेवगोभ्यः। सचिन्तयन्निथमथा शृणोद्यथा मुने सुतोक्तो निरृतिस्तक्षकाख्यः। स साधु मेने न चिरेण तक्षकानलं प्रसक्तस्य विरक्तिकारणम्। अथो विहायेम ममुं च लोकं विमर्शितौ हेयतया पुरस्तात्। कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम्। या वै लसच्छ्री तुलसी विमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री। पुनाति लोकानुभयत्र शेषान्, कस्तान्न सेवेत मरिष्यमाणः। इति व्यवच्छिद्यस पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम्। दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः। तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः। प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः। अत्रिर्वसिष्ठश्च वनः शरद्वानरिष्टनेमिर्भृगुरङ्गिराश्च। पराशरोगादिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ। मेधातितिर्देवलार्षिषेणो भारद्वाजो गौतमपिप्पलादः। मैत्रेय उर्वः कवशः कुम्भयो निर्द्वैपायनो भगवान्नारदश्च। अन्ये च देवर्षि ब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च। नानार्षेयप्रवरान् समेतानभ्यर्च्य राजा शिरसा भवन्दे। सुकोपविष्टे श्वसतेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत्। विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः। राजोवाच, अहो वयं धन्यतमान् नृपाणां महत्तमानुग्रहणीयशीलाः। राज्ञां कुलं ब्राह्मणपादशौचात् दूराद् विसृष्टं बतगर्ह्यकर्म। तस्यैव मेघस्य परावरेषो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम्। निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशुधत्ते। तम्मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे। द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः। पुनश्च भूयाद् भगवत्यनन्ते रतिः प्रसङ्गस्य तदाश्रयेषु। महत्सुयां यामुपयामि सृष्टिं, मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः। इति स्म राजाध्यवसाय युक्तः प्राचीनमूलेषु कुशेषु धीरः। उदङ्मुखो दक्षिणकूलास्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः। एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः। प्रशस्य भूमौ व्यकिरन् प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः। महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः। ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम्। न वा इदं राजर्षिवर्यचित्रं भवत्सुकृष्णं समनुव्रतेषु। ये ध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः। सर्वे वयं तावदिहास्महेद्य कलेवरं यावदसौ विहाय। लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवत प्रधानः। आश्रित्य तदृशिगणवचः परीक्षित् समं मधुच्युत् गुरुचाव्यलीकम्। आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः। समागता सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे। नेहाथवामुत्र च कश्चनार्थरिते परानुग्रहमात्मशीलम्। ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम्। सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृषताभियुक्ताः। तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः। अलक्षलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः। तं द्व्यष्टवर्षं सुकुमारपादकरोरुबाह्वंसकपोलगात्रम्। चार्वायताक्षोन्नसतुल्यकर्ण सुभ्रुवाननं कम्बुसुजातकण्ठम्। निगूढजत्रुं पृथुतुङ्गवक्षस मावर्तनाभिं बलिवल्गूदरं च। दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम्। श्यामम् सदापि च वयोऽङ्गलक्ष्म्या स्त्रीणाम् मनोज्ञम् रुचिरस्मितेन प्रत्युत्थितास्ते मुनयश्वासनेभ्यस्तल्लक्षणज्ञा अपि गूढवर्चसम् स विष्णुरातोतिथया आगताय तस्मै सपर्याम् शिरसा जहार ततो निवृत्ताय बुधा स्त्रियोर्भका महासने सोपविवेश पूजितः स संवृतस्तत्र महान् महीयसाम् ब्रह्मर्षि राजर्षि देवर्षि सङ्घैः व्यरोचतालम् भगवान् यथेन्दुर्ग्रहर्क्षतारा निकरैः परीतः प्रशान्तमासीनमकुण्ठमेतसम् मुनिम् नृपो भागवतोऽभ्युपेत्य प्रणम्य मूर्ध्ना वहितकृताञ्जलिर्नत्वा गिरासोन्नृतयान्वपृच्छत् परीक्षिदुवाच अहो अद्य वयम् ब्रह्मन् सत्सेव्या क्षत्रबन्धवः कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः येषाम् संस्मरणात् पुंसाम् सद्यः शुध्यन्ति वै गृहाः किम् पुनर्दर्शनस्पर्शपादशौचासनादिभिः सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि सद्यो नश्यन्ति वै पुंसाम् विष्णोरिव सुरेतराः अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः पैतृस्वसेयप्रीत्यर्थम् तद्गोत्रस्यात्तबान्धवः अन्यथा ते व्यक्तगतेर्दर्शनम् नः कथम् दृणाम् नितराम् म्रियमाणानाम् संसिद्धस्य वनीयसः अतः पृच्छामि संसिद्धिम् योगिनाम् परमम् गुरुम् पुरुषस्येह यत्कार्यम् म्रियमाणस्य सर्वथा यच्छ्रोतव्यमथो जप्यम् यत्कर्तव्यम् नृपिः प्रभो स्मर्तव्यम् भजनीयम् वा ब्रूहि यद्वा विपर्ययम् नूनम् भगवतो ब्रह्मन् गृहे सुगृहमेधिनाम् न लक्ष्यते यवस्थानमपि गोदोहनम् क्वचित् सूत उवाच एवमाभाषितः पृष्टः स राज्ञा सुलक्षणया गिरा प्रत्यभाषतधर्मज्ञो भगवान् बादरायणिः एवमाभाषितः पृष्टः स राज्ञा सुलक्षणया गिरा प्रत्यभाषतधर्मज्ञो भगवान् बादरायणिः ॐ स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् प्रथमस्कन्धे शुकागमनम् नामैकोनविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।